Hare Krishna, we will learn text 9 from chapter 4, Transcendental Knowledge, from Bhagavad Gita as it is. Please repeat after me 3 times. Janma Karma,
Janma Karma, Janma Karma, Janma Karma.
Chame Divyam,
Chame Divyam, Chame Divyam, Chame Divyam.
Evam Yo Veti,
Evam Yo Veti, एवं यो वेति एवं यो वेति
तत्वतः
तत्वतः तत्वतः तत्वतः
त्यक्त्वा
त्यक्त्वा त्यक्त्वा त्यक्त्वा
देहं
देहं देहं देहं
पुनर्जन्म
पुनर्जन्म पुनर्जन्म पुनर्जन्म
नैति मामेति
नैति मामेति नैति मामेति नैति मामेति
सो अर्जुन
सो अर्जुन सो अर्जुन सो अर्जुन
यू हैव एनी डाउट इन प्रोनाउंसिएशन
नो
के प्लीज रिसाइट आफ्टर मी 3 टाइम्स जन्म कर्म च मे दिव्यम
जन्म कर्म च मे दिव्यम जन्म कर्म च मे दिव्यम जन्म कर्म च मे दिव्यम
एवं यो वेति तत्वतः
एवं यो वेति तत्वतः एवं यो वेति तत्वतः एवं यो वेति तत्वतः
त्यक्त्वा देहं पुनर्जन्म
त्यक्त्वा देहं पुनर्जन्म त्यक्त्वा देहं पुनर्जन्म त्यक्त्वा देहं पुनर्जन्म
नैति मामेति सो अर्जुन
नैति मामेति सो अर्जुन नैति मामेति सो अर्जुन नैति मामेति सो अर्जुन
आई विल रिसाइट द एंटायर वर्स जन्म कर्म च मे दिव्यम् एवं यो वेति तत्त्वतः त्यक्त्वा देहं पुनर्जन्म नैति मामेति सो अर्जुन
जन्म कर्म च मे दिव्यम् एवं यो वेति तत्त्वतः तत्त्वदेहं पुनर्जन्म नैति मामेति सो अर्जुन
ट्रांसलेशन बाय डिवाइन ग्रेस एसी भक्तिवेदांत स्वामी श्रील प्रभुपाद One who knows the transcendental nature of my appearance and activities does not, upon leaving the body, take his birth again in this material world, but attains my eternal abode, O Arjuna.